त्रियायुधं त्रिजन्म पाप संहारं एक बिल्वं शिवार्पणम् त्रिशाखैः बिल्वपत्रैश्च अच्युतैः कोमलैः शुभैः तव पूजां करिष्यामि एक बिल्वं शिवार्पणम् कन्या महादानं तिलपर्वतकोटयः काञ्चनं शीलदानेन एकबिल्वं शिवार्पणम् काशीक्षेत्रनिवासं च कालभैरवदर्शनं प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् महेश्वरः नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणम् रामलिङ्गप्रतिष्ठा च वैवाहिककृतं तथा तटाकानि च सन्धानम् एकबिल्वं शिवार्पणम् अखंड बिल्वपत्रं च आयुतं शिवपूजनं कृतं नाम सहस्रेण एकबिल्वं शिवार्पणम् उमया सह देवेश नन्दिवाहनमेव च भस्मलेपन सर्वांगं एकबिल्वं शिवार्पणम् सालग्रामेषु विप्राणां तटाकं दशकूपयोः यज्ञकोटिसहस्रश्च एकबिल्वं शिवार्पणम् दन्तिकोटिसहस्रेषु अश्वमेधशतक्रतौ कोटिकन्यामहादानं एकबिल्वं शिवार्पणम्। बिल्वानां दर्शनं पुण्यं स्पर्शनं पापनाशनं अघोर पाप संहारं एकबिल्वं शिवार्पणम्। सहस्रवेदपाठेषु ब्रह्मस्थापनं उच्यते अनेकव्रतकोटीनां एकबिल्वं शिवार्पणम्। अन्नदानसहस्रेषु सहस्रोपनयनं तथा अनेकजन्मपापानि एकबिल्वं शिवार्पणम्। बिल्वस्तोत्रं इदं पुण्यं यः पठेत शिवसन्निधौ शिवलोकम् अवाप्नोति एकबिल्वं शिवार्पणम्।